ಯಲ್ಲೀಲಾ ವಿಮಲಾ ವಿಲೋಕ್ಯ ವಿಪುಲ ಪ್ರಾಲೇಯ ಬಾಲಾಲಯೇ ಭೂಪಾಲೇಂದ್ರ ಲಲಾಟ ಲಾಲನ ಕಲಾ ಲೇಪಾಂಕಿತಕ್ಷ್ಮಾತಲೇ ಉಲ್ಲಂಘ್ಯ ಸ್ವಕುಲಾಲಿಕೂಲಕಲಿತಾಂ ಲಜ್ಜಾನದೀಂ ಮೈಥಿಲೀ ಯಲ್ಲೋಕಾಕುಲಿತಾಚ ಚಾಲಚಲವದ್ ರಾಮಾಯ ತಸ್ಮೈ ನಮಃ.
ಮನೋಜವಂ ಮಾರುತತುಲ್ಯವೇಗಂ ಜಿತೇಂದ್ರಿಯಂ ಬುದ್ಧಿಮತಾಂ ವರಿಷ್ಠಂ ವಾತಾತ್ಮಜಂ ವಾನರಯೂಥಮುಖ್ಯಂ ಶ್ರೀರಾಮದೂತಂ ಶರಣಂ ಪ್ರಪದ್ಯೆ. ನಿಯತಂ ಸುರಭಾರತೀ ಸಮುಪಾಸಕಾಃ ಸಂಸ್ಕೃತ ಸೇವಯಾ ಸ್ವಜೀವನಂ ಸರ್ವಥಾ ಸರ್ವದಾ ಚ ಪರಿಪಾವಯಂತಃ ಮೇ ಶ್ರೋತೃಜನಾಃ. ಸಂಸ್ಕೃತ ಸಾಪ್ತಾಹಿಕ್ಯಾಃ ಅಭಿನವೇಸ್ಮಿನ್ ಅಂಕೆ ಪುನರಪಿ ಸಮಕ್ಷಂ ಅಭಿನವೈಃ ವಿಷಯೈಃ ಸಮುಪಸ್ಥಿತಾ ಅಹಂ ನಿಧಿ ಝಾ ಭವತಾಂ ಭವತೀನಾಂ ಚ ಹೃದಯಪೂರ್ವಕಂ ಪ್ರಣಾಮಾಂಜಲಿಭಿಃ ಪುರಸ್ಕೃತಾನಿ ಸ್ವಾಗತ್ವಾಕ್ ಕುಸುಮಾನಿ ಸಮಾವಿಷ್ಕರೋಮಿ.
ಕಥ್ಯತೆ ಯತ್ ಸಂಸ್ಕೃತ ಸಾಹಿತ್ಯೇ ಸುಭಾಷಿತಾನಾಮಸ್ತಿ ವಿಶಿಷ್ಟೋ ಮಹಿಮಾ ಪೃಥಿವ್ಯಾಂ ತ್ರೀಣಿ ರತ್ನಾನಿ ಜಲಮನ್ನಂ ಸುಭಾಷಿತಂ ಇತಿ ತು ಶ್ರುತಮೇವ ಅಸ್ಮಾಭಿಃ. ಸುಭಾಷಿತಾನಿ ಲೋಕಸ್ಯ ಗತಿಂ ಮತಿಂ ಸ್ಥಿತಿಂ ಚ ಪರಿವರ್ತಯಿತುಂ ಕ್ಷಮಾನಿ ಸಂತಿ. ಅಸ್ಮಾಕೀನಂ ಅದ್ಯತನಂ ಸುಭಾಷಿತಮಪಿ ಲೋಕಸ್ಥಿತಿ ಖ್ಯಾಪಕಮಸ್ತಿ.
ಆಯಾಂತು ಶುಭಸ್ಯ ಶೀಘ್ರಮಿತಿ ನೀತಿಂ ಸ್ಮರಂತಃ ಮನೋಹರ ಸುಭಾಷಿತ ವಚನೇನ ಕಾರ್ಯಕ್ರಮಸ್ಯಾಸ್ಯ ಉಪಕ್ರಮಂ ಪ್ರತಿ ಪ್ರವಿಶಾಮಃ. ಸುಭಾಷಿತಂ ಶ್ರಾವಯತಿ ಪುನೀತ ತ್ರಿಪಾಠೀ.
ವಿದ್ಯಾ ಶಸ್ತ್ರಸ್ಯ ಶಾಸ್ತ್ರಸ್ಯ ದ್ವೇ ವೇದ್ಯೇ ಪ್ರತಿಪತ್ತಯೇ ಆದ್ಯಾ ಹಾಸ್ಯಾಯ ವೃದ್ಧತ್ವೇ ದ್ವಿತೀಯಾ ದ್ರಿಯತೇ ಸದಾ. ಅರ್ಥಾತ್ ಶಸ್ತ್ರವಿದ್ಯಾ ಔರ್ ಶಾಸ್ತ್ರ ವಿದ್ಯಾ, ಈ ದೋ ಪ್ರಕಾರ ಕಿ ವಿದ್ಯಾ ಹೋತಿ ಹೈ. ವೃದ್ಧಾವಸ್ಥಾ ಮೇ ಶಸ್ತ್ರ ವಿದ್ಯಾ ಹಸಿ ಕಾ ಕಾರಣ ಬಂತಿ ಹೈ, ಜಬ್ಕಿ ಶಾಸ್ತ್ರ ವಿದ್ಯಾ ಸದಾ ಮಾನ ಸಮ್ಮಾನ ಪಾತಿ ಹೈ ಔರ್ ಬಢಾತಿ ಭೀ.
ಶೋಭನಾ ಪ್ರಸ್ತುತಿ. ಧನ್ಯವಾದಾಃ ಮಹೋದಯಾಯ. ಸಾಂಪ್ರತಂ ಪ್ರಸಂಗ ಪ್ರಭಾಗಮನುಗಚ್ಛಾಮಃ. ಸುಮಧುರ ರಸ ಪ್ಲಾವಿತೇನ ವಚಸಾ ಸರ್ವಾನ್ ಆನಂದಯತಿ ರಿಂಕು ಜೋಶಿ.
ದುರ್ಗಾಂ ಶಿವಾಂ ಶಾಂತಿಕರೀಂ ಬ್ರಹ್ಮಾಣೀಂ ಬ್ರಹ್ಮಣಾ ಪ್ರಿಯಾಂ ಸರ್ವಲೋಕ ಪ್ರಣೀತ್ರೀಂ ಚ ಪ್ರಣಮಾಮಿ ಸದಾಶಿವಾಂ. ಮಂಗಲಾಂ ಶೋಭನಾಂ ಶುದ್ಧಾಂ ನಿಷ್ಕಲಾಂ ಪರಮಾಂ ಕಲಾಂ ವಿಶ್ವೇಶ್ವರೀಂ ವಿಶ್ವಮಾತಾಂ ಚಂಡಿಕಾಂ ಪ್ರಣಮಾಮ್ಯಹಂ. ಸರ್ವದೇವಮಯೀಂ ದೇವೀಂ ಸರ್ವರೋಗಭಯಾಪಹಾಂ ಬ್ರಹ್ಮೇಶ ವಿಷ್ಣೂನಮಿತಾಂ ಪ್ರಣಮಾಮಿ ಸದಾ ಉಮಾಂ. ವಿಂಧ್ಯಸ್ಥಾಂ ವಿಂಧ್ಯನಿಲಯಾಂ ದಿವ್ಯಸ್ಥಾನನಿವಾಸಿನೀಂ ಯೋಗಿನೀಂ ಯೋಗಮಾತಾಂ ಚ ಚಂಡಿಕಾಂ ಪ್ರಣಮಾಮ್ಯಹಂ. ಈಶಾನಮಾತರಂ ದೇವೀಂ ಈಶ್ವರೀಮೀಶ್ವರಪ್ರಿಯಾಂ ಪ್ರಣತೋಸ್ಮಿ ಸದಾ ದುರ್ಗಾಂ ಸಂಸಾರಾಣವತಾರಿಣೀ. ಯ ಇದಂ ಪಠತೆ ಸ್ತೋತ್ರಂ ಶೃಣುಯಾದ್ವಾಪಿ ಯೋ ನರಃ ಸಮುಕ್ತಃ ಸರ್ವಪಾಪೈಸ್ತು ಮೋದತೆ ದುರ್ಗಯಾ ಸಹ. ಇತಿ ಶಿವರಹಸ್ಯೇ ಶ್ರೀ ದುರ್ಗಾಸ್ತೋತ್ರಂ.
ಸಾಧು ಆನಂದಿತಾಹ ಅಭೂಮ. अयि मे श्रोतारः, आधुनिके अस्मिन् समाजे संस्कृत ज्ञानमिव विश्वमण्डले सङ्घटमानानां वार्तानां ज्ञानमपि नितान्तम् आवश्यकमिति जानन्त्येव भवन्तः। अतः तादृशीम् आवश्यकतां पूरयितुं नूतन वार्ताभिः समुपतिष्ठते मुदिता वेतालः।
प्रधानमन्त्री नरेन्द्र मोदी मन्त्रिमण्डलस्य सुरक्षा समितेः विशेषोपवेशनस्य अध्यक्षताम् अकरोत्। पश्चिम एशियायां संघर्षस्य दुष्प्रभावेण भारतीय नागरिकान् रक्षितुं यथा संभव प्रयासस्य आह्वानम् अकरोत्। प्रधानमन्त्री गुरुवासरे लोकसेवकानां क्षमता विकासाय साधना सप्ताहस्य शुभारम्भम् अकरोत्। अयं कार्यक्रमः अप्रैल अष्टम दिनं यावत् भविष्यति। पश्चिम बंगाल विधानसभा निर्वाचनस्य द्वितीय चरणाय अधिसूचना गुरुवासरे प्रख्यापिता। द्वितीय चरणाय मतदानं एप्रिल मासस्य नवविंशति दिनांके भविष्यति। अमेरिका देशे राष्ट्रपतिः डोनाल्ड ट्रम्पः अवोचत् यत् ईरान देशे अमेरिका देशस्य सेना शीघ्रं एव कार्यं पूरयिष्यति। सेना प्रमुखः रणनीतिकोद्देश्यानां प्राप्त्यर्थम् अन्तिम चरणात्मकं कार्यं करोति।
धन्यवादाः। अनुक्ताः ये भक्ताः प्रभुचरण संसक्त हृदयाः, अविज्ञाता वीरा अधिसमरमुध्वस्त रिपवः, समाजोर्धतारः सुहितकर विज्ञान निपुणाः, नमस्तेभ्यो भूयात् सकल सुजनेभ्यः प्रतिदिनम्। अयि शास्त्र प्रपंच महोदधि निमज्जन कराः सुरभारती समर्चकाः, संस्कृतानुरागिणो ज्ञानार्जन ज्ञान प्रसार कर्म तत्परा मन्मित्र राशि धनिनः कर्तव्या कर्तव्य बोधकाः ज्ञान वयो वृद्धाः सुधियः श्रोतारः, इदानीं वयं ज्ञान विज्ञान निदर्शनीति अन्वर्थ संज्ञके प्रभागे प्रविशामः। इह प्रभागे कश्चित् महाजनः पण्डित प्रवरः मनीषी स्वानुभवात्मकैः समुपदेशैः अस्माकं पथ प्रदर्शनमाचरति इति सुप्रसिद्धमेव। चलेम तावत् ज्ञान विज्ञान प्रभागे।
नमः सर्वेभ्यः श्रोतृवृन्देभ्यः। मित्राणि, अद्य वयं जनरेटिव आर्टिफिशियल इंटेलिजेंस इत्युक्ते सर्जनात्मक कृत्रिम प्रज्ञा इत्येतं विषयमधिकृत्य अस्मिन् ज्ञान विज्ञान प्रभागे भवतां समक्षम् उपस्थिताः। साम्प्रतिके अस्मिन् यांत्रिक युगे कथम् अस्माकं संस्कृत भाषा नूतन कलेवरेण सह सुशोभते इति विषये नूतन तथ्यानां प्रकटीकरणाय अस्मन्मध्ये विराजते कुशाग्र प्रज्ञा सम्पन्नः शोधच्छात्रः राहुल झा महोदयः। महोदय, आदौ आकाशवाणी पक्षतः भवतः हृत्पूर्वकं स्वागतं व्याहरामि।
असतो मा सद्गमय, तमसो मा ज्योतिर्गमय, मृत्योर्मा अमृतं गमय। धन्यवादः जतिन महोदयः, अहमपि अत्रागत्य आत्मानं धन्यं मन्ये।
मान्यवर, आदौ वयं ज्ञातुकामाः यत् भवतां शोधकार्यं कं विषयमधिकृत्य प्रवर्तते।
मम शोधः तावत् ChatGPT, Gemini, Grok सदृशाः तन्त्रांशाः संस्कृतस्य अधिगम प्रक्रियां सामाजिक परिवेशं च कथं प्रभावयन्ति इति एतत् अधिकृत्य वर्तते। अत्र मया अन्विष्यते यत् कः इदानीं शीघ्रतया कुशलतया च अधिगमे सक्षमः विद्यते, गुरु शिष्य सम्बन्धेषु किं परिवर्तनं जातम्, सहैव किम् अनेन अस्माकं सांस्कृतिक समुदायः सुदृढः भवति उत निर्बलः। एतदर्थं मया ग्रामीण जनैः आरभ्य आधुनिक विद्वद्भिः सह संवादः विहितः। एतैः उपकरणैः तेषां जीवने किं परिवर्तनं जातम् इति सर्वमपि अन्वेषणार्थम् अहम् अस्मिन् शोधकार्ये प्रयासरतः अस्मि।
एवं महोदय, अद्यत्वे जनाः संस्कृतस्य अध्ययनाय कथं कृत्रिम प्रज्ञायाः प्रयोगं कुर्वन्ति, कृपया विशदीकुर्वन्तु।
तत्र बहवः प्रयोगात्मक दृष्टान्ताः सन्ति। यथा छात्राः कृत्रिम प्रज्ञायै निर्दिशन्ति यत् भगवद्गीतायाः एतं श्लोकं यथा पञ्चदश वर्षीय बालकाय बोध्यते तथा बोधयतु। तदा एतद् यन्त्रम् आधुनिक उदाहरणैः सह अतीव सरलतया तान् समाधानं ददाति। एवमेव विद्वांसो अपि तालपत्र पाण्डुलिपीनां निमिषार्धेन एव अनुवादं कारयितुं शक्नुवन्ति. केचन तु आदिशङ्कराचार्यैः सह आधुनिक वैज्ञानिकस्य संवादं रचयन्ति, तथैव केचन AI यन्त्रं स्वकीयवादमित्रत्वेन निर्माय वादविवाद चलचित्राणि साधयन्ति. शिक्षकाः तावत् एतस्य सहकारेण पौराणिक कथानां 3D माध्यमेन चलचित्रं निर्माय YouTube वाहिनीषु प्रसारयन्ति. विदेशेषु स्थिताः संस्कृत अनुरागिणः येषां समीपे गुरुः नास्ति, ते अपि अद्यत्वे एतेन सह सम्भाषणस्य अभ्यासं कुर्वन्ति. एवं विध प्रकारेण साम्प्रतं संस्कृतप्रेमिणः कृत्रिम प्रज्ञायाः प्रयोगेण संस्कृतं पठन्तः सन्ति.
मान्यवर, सामाजिकस्तरे यदि अवलोकयामः तर्हि एतेन सर्वाधिकः लाभः कस्य जायते?
पुरातनकाले केवलं काशी, दिल्ली, मैसूर सदृशनगरेषु एव गभीराध्ययनं सम्भवति स्म. परञ्च इदानीं राजस्थानस्य लघु ग्रामस्य काचित् बालिका स्यात् अथवा बेङ्गलूरुनगरस्य कश्चन उद्योगजीवी भवेत्, ते सर्वे रात्रौ 10 अपि सौविद्यानुसारं पठितुं शक्नुवन्ति. येषां मनसि पूर्वं भयमासीत् यत् अहं संस्कृतं नैव पठितुं शक्नोमि, ते अपि अद्य निर्भयं संस्कृतं पठन्ति. एवमेव सेवानिवृत्ताः अधिकारिणः अपि गृहे स्थित्वा शास्त्राणि पठन्ति. अतः सर्वे अपि प्रायः अनेन लाभं स्वीकुर्वन्ति इति वक्तुं शक्यते.
महोदय, प्रत्येकस्यापि नाणकस्य पक्षद्वयं भवतः इति तु वयं जानीमः, तर्हि अस्य के प्रतिकूलप्रभावाः भवितुमर्हन्ति?
सत्यं, मयापि अत्र अस्य प्रतिकूलप्रभावाः तावत् त्रिधा विभक्ताः. तत्र प्रथमः आश्रितत्वम्. यदि वयं सर्वदा केवलं कॉपी पेस्ट इत्येव करिष्यामः तर्हि अस्माकं स्वबुद्धिः कुण्ठिता भविष्यति. द्वितीयः, प्रमाणिकतायाः न्यूनता. यन्त्राणि कदाचित् व्याकरणे अथवा ग्रन्थसन्दर्भेषु दोषान् कुर्वन्ति, अतः अस्माभिः सर्वदापि अत्र प्रमाणिकता अवलोकनीया. तृतीयः, सांस्कृतिक स्वामित्वम्. एतेषां यन्त्राणां निर्माणं भारतात् बहिः भवति, यत्र वैदेशिकैः एव संस्कृतविदुषाम् अभावे निर्माणं क्रियते. अस्माकं विदुषां तत्र उपस्थिति आवश्यकी, येन संस्कृतस्य आत्मा सुरक्षिता भवेत्.
सुष्ठु प्रतिपादितं भवता. अन्ते संस्कृतजिज्ञासूनां कृते भवतः कः परामर्शः?
अहम् एतदेव वक्तुमिच्छामि यत् आगामिवर्षेषु एतादृशानि AI साधनानि आगमिष्यन्ति यानि संस्कृतं वदिष्यन्ति, लुप्तं परम्पराणां संरक्षणं च करिष्यन्ति. परञ्च जेनेरेटिव AI केवलं साधनम् अस्ति, साध्यं तु संस्कृतप्रेम एव. Fifi Lee had said, AI is not a substitute for human intelligence but a tool to augment human capabilities. अतः अस्माभिः एतेषाम् उपकरणानां प्रयोगः अतीव सावधानतया करणीयः, येन अस्माकं संस्कृतस्य प्रतिष्ठा, तस्य प्रभावः उत्तरोत्तरं प्रसरेत्.
मान्यवर, कृत्रिमप्रज्ञायाः विषये अद्य भवता बहवः नूतनविचाराः प्रकटिताः. निश्चप्रचमेव अस्माकं श्रोतृवृन्दाः अनेन लाभान्विताः भविष्यन्ति. अन्ते तावत् अस्मभ्यं नैजम् अमूल्यकालप्रकल्पनाय भवते आकाशवाणी पक्षतः हार्दिकान् धन्यवादान् वितन्मः.
मत्कृते अवसर प्रदानाय अहमपि आकाशवाण्ये भवते च भूयो भूयशः मदीयं कारतज्ञम् आविष्करोमि.
संस्कृतक्षेत्रे सकल जन सम्प्रेरकाः एतादृशाः देववाणी समुपासकाः विराजन्ते इति अस्माकं कृते गौरवविषयः. आचार्यस्य वक्तृत्व कौशलम् अवलोक्य मनो मे मोदते.
अहो, विद्वद्वाणीम् अवधार्य आनन्दिताः स्मः. विदुषे स्वामूल्य समय प्रदानाय धन्यवादाः. अधुना वयं संस्कृत दिग्दर्शन प्रभागं सम्प्राप्ताः वर्तामहे. विश्वभाषा संस्कृतस्य सेवा सकलस्यापि विश्वस्य परमं कर्तव्यं विद्यते इति सकलमपि प्रपञ्चं संस्कृत सेवार्थं प्रोत्साहयितुं प्रवर्तयितुं च अस्माभिः संस्कृतानुरागिभिः समाचरितानि कृत्यानि दृष्टान्तरूपेण परेषामुपकाराय अत्र प्रस्तूयन्ते. तदिदं प्रकाशयति साधना शर्मा.
हरिद्वारे श्री रामानुज श्री वैष्णव संस्कृत महाविद्यालये संस्कृत साहित्य विषये अस्थायी शिक्षक पदस्य आवेदनम् आमन्त्रितम् यस्य अन्तिमदिनाङ्कः अप्रैल मासस्य अष्टदिनाङ्कः वर्तते। रामनवम्याः पावनावसरे आयोजिते समारोहे प्रोफेसर शिवशंकर मिश्र महोदयः सम्राट विक्रमादित्य सारस्वत सम्मानेन विभूषितः। कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालयस्य दर्शन विभागाध्यक्षः डॉ धीरज कुमार पाण्डेय महोदयः साहित्य अकादमी युव पुरस्कारेण सम्मानितः। केन्द्रीय संस्कृत विश्वविद्यालयस्य लखनऊ परिसरे छात्रावास दिवसस्य भव्यः कार्यक्रमः आयोजितः।
धन्यवादाः महोदयाय। अतः परं बालानामपि संस्कृत भाषायां रुचेः ज्ञानस्य च संवर्धनाय बाल मनोहारिभिः सूक्तिभिः उपस्थिताः विद्यन्ते गणेश हेगडे।
कथायाः शीर्षकम् अस्ति मूर्खः भृत्यः। अरे शङ्खनाद, गच्छापणम् शर्कराम् आनय इति स्वभृत्यम् शङ्खनादम् गोवर्धनदासः आदिशति। ततः शङ्खनादः आपणम् गच्छति, शर्कराम् जीर्णे वस्त्रे न्यस्यति च। तस्मात् जीर्णवस्त्रात् मार्गे एव सर्वापि शर्करा पतति। ततः गोवर्धनदासः कोपेन शङ्खनादम् वदति, अरे मूढ, कुत्रास्ति शर्करा? शर्करादिकम् एवम् जीर्णेन वस्त्रेण न आनयन्ति। इतः परम् किमपि वस्तु जातम् दृढायाम् सञ्चिकायाम् निक्षिप्य आनय इति। अत्रान्तरे गोवर्धनदासस्य पुत्रः श्वानशावकम् आनय इति शङ्खनादम् आदिशति। आज्ञापालकः शङ्खनादः श्वानशावकम् सञ्चिकायाम् निक्षिप्य सञ्चिकाम् वस्त्रेण आच्छादयति च। तेन शावकस्य श्वासः रुद्धः भवति, स च श्वानशावकः पञ्चत्वम् एव गच्छति। तदा गोवर्धनदासः आक्रोशति च, दिक् मूढ, श्वानादिकम् रज्जुना बद्ध्वा आनयन्ति इति अपि नावगच्छसि किम्? ततः कदाचित् गोवर्धनदासस्य भार्या दुग्धम् आनय इति तस्मै कथयति। सः आपणम् गच्छति, पात्रे दुग्धम् आदाय रज्जुना बद्ध्वा कर्षति। मार्गे पात्रम् लुठति, पात्रात् दुग्धम् सर्वम् प्रवहति। तेन हताशः गोवर्धनदासः तम् वदति, भो महापण्डित अपसर, कृष्णम् भवत् ते मुखम् इति। तदा आज्ञापालकः शङ्खनादः बहिः गच्छति, कज्जलेन मुखम् लिम्पति, तेन तस्य मुखम् कृष्णम् भवति। ततः कृष्णमुखः सः प्रत्यागच्छति, गोवर्धनदासः विरूपम् तम् पश्यति, आत्मानम् एव निन्दति, ललाटम् हस्तेन ताडयति, वदति च, वरम् भृत्य विहीनस्य जीवितम् श्रमपूरितम्, मूर्खभृत्यस्य संसर्गात् सर्वं कार्यं विनश्यति।
मधुरमाचरणम् अवश्यमेव बालाः सन्तुष्टाः भवेयुः इति विश्वसिमि। इदानीं संस्कृतजनन्याः सेवार्थम् भाषाज्ञानमेव प्राथमिक सोपानमिति विचिन्त्य कैश्चित् भाषानुवादैः अत्र स्वम् उपस्थापयति सुषमा कुमारी।
प्रथमम् वाक्यमस्ति, डॉक्टर भीमरावः अम्बेडकरस्य जयन्तीः प्रतिवर्षम् अप्रैल मासस्य चतुर्दशे दिवसे उत्सवेन मन्यते। हिन्दी भाषा में डॉक्टर भीमराव अम्बेडकर की जयंती हर साल 14 अप्रैल को मनाई जाती है। असमिया में डॉक्टर भीमराव अम्बेडकर जयंती प्रति बच्छर 14 अप्रैल पालन करा होए। द्वितीय वाक्यमस्ति, अस्मिन् दिवसे वयम् तस्य महान कार्याणि स्मरामः। हिंदी भाषा में इस दिन लोग उन्हें श्रद्धा से याद करते हैं। असमिया में एड दिन मानुहे तेनाक श्रद्धार साथे स्मरण करे। तृतीय वाक्यमस्ति, असौ भारतस्य संविधानस्य प्रमुखः निर्माता आसीत्। हिंदी भाषा में उन्होंने भारत का संविधान बनाने में महत्वपूर्ण योगदान दिया। असमिया में तेओ भारतर संविधान बना बोलोई डारर योगदान दिसिल। चतुर्थम वाक्यमस्ति, असौ समानता न्याय शिक्षायाः महान समर्थकः आसीत्। हिंदी भाषा में वे समानता और शिक्षा के महान समर्थक थे। असमिया में तेओ समानता ताऊ शिक्षार समर्थक आसिल। पंचमं वाक्यमस्ति, तस्य जीवनम् अस्मान् सत्कर्माणि प्रेरयति। हिंदी भाषा में उनकी जयंती हमें अच्छे कार्य करने की प्रेरणा देती है। असमिया में तेनार जीवन मानुहक प्रेरणा दिए।
धन्यवाद। धन्यवादाः प्रियतमाः श्रोतृवृन्दाः अद्यतनोऽयं कार्यक्रमः उपसंहारस्य सोपाने सम्प्राप्तः विद्यते कार्यक्रमस्यास्य विषये भवतां भवतीनाञ्च अभिप्रायः अस्माकं प्रोत्साहको भवति अतः sanskritsaptahiki@gmail.com संकेते स्वाभिप्रायं प्रकटय्य अस्मान् उपकुर्वन्तु इति गदन्ति पुनः नूतनांके नूतनांशैः मेलनं विज्ञापयन्ति पुनरपि धन्यता कुसुमानी निवेदयन्ति अहं भवतां निधिझा विरमामि जीयात् शास्त्र शेवधिः